इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य द्वितीय चरणाय नामांकनस्य ह्यः अन्तिमा तिथिः आसीत्। अस्मिन् चरणे मणिपुर लोकसभाक्षेत्रेण सह द्वादश राज्याणां केन्द्र शासित प्रदेशानां च अष्टाशीति निर्वाचनासनेषु निर्वाचनं भविष्यति। मणिपुर निर्वाचन क्षेत्रस्य एकस्मिन् भागे प्रथम चरणे मतदानं भविष्यति। केरलस्य 20, कर्णाटकस्य 14, राजस्थानस्य 13, उत्तरप्रदेश महाराष्ट्रयोः च क्रमशः 8, मध्यप्रदेशस्य 7, असम बिहारयोः क्रमशः 5, पश्चिम बंगाल छत्तीसगढ़योः च क्रमशः 3, निर्वाचनासनेषु अस्मिन् चरणे मतदानं भविष्यति। एतदतिरिच्य त्रिपुरा जम्मूकश्मीरयोः अपि अस्मिन् चरणे मतदानं भविष्यति। द्वितीयचरणस्य मतदानं अप्रैलमासस्य 26 दिनांके भविष्यति। ह्यः नामांकनं कर्तृषु प्रमुखनेतृषु उत्तरप्रदेशस्य मथुरा लोकसभास्थानात् हेमामालिनी, कर्णाटकस्य मण्ड्यातः एचडी कुमारस्वामी, त्रिशूरतः अभिनेता राजनेता च सुरेश गोपी, वायनाडतः के सुरेन्द्रनः, केरलस्य अलपुझातः केसी वेणुगोपालः च सम्मिलिताः सन्ति। सर्वेषु राज्येषु केन्द्रशासितप्रदेशेषु च नामांकनसमीक्षा अद्य जम्मूकश्मीरस्य श्वः च भविष्यति। ओडिशातः अग्नि प्राइम इति प्रक्षेपणास्त्रं सफलतया प्रक्षेपितम्। एतत् प्रक्षेपणं ओडिशानगरस्य डॉ एपीजे अब्दुल कलाम द्वीपात परीक्षणं सामरिकबलं एसएफसी रक्षा अनुसंधान विकास संघटनम् डीआरडीओ इत्यनयोः परस्पर सहयोगेन संजातम्। रक्षामन्त्रालयस्य अनुसारं नवीनश्रेण्याः बैलिस्टिक प्रक्षेपणास्त्रम् अग्नि प्राइम इत्यनेन सर्वाणि परीक्षण लक्ष्यानि प्रपूरितानि, येन तस्य कार्यक्षमतायाः विश्वसनीयता संसिद्धा अभवत्। रक्षामन्त्री राजनाथसिंहः अग्नि प्राइम प्रक्षेपणास्त्रस्य सफल परीक्षणम् अधिकृत्य डीआरडीओ, एसएफसी, सशस्त्र सेना इत्येतेषाम् अभिनन्दनं कृतवान्। सः अवदत् यत् प्रक्षेपणास्त्रस्य सफल विकासः, तस्य सेनायां प्रवेशः च सशस्त्रबलानां कृते महत्वपूर्णः सिद्धः भविष्यति। विदेशमन्त्रालयेन ह्यः उक्तं यत् G2G इत्यस्यान्तर्गतं प्रथमं दलं इजरायलदेशं प्रति गतः। ह्यः अपराह्ने नवदिल्ल्यां वार्ताहरान् सम्बोधयता मन्त्रालयस्य प्रवक्त्रा रणधीर जयशवालेन उक्तं यत् भारतं तस्य सुरक्षायाः विषये जागरूकः अस्ति। श्रीजयशवालेन इजरायल अधिकारिभ्यः तेषां सुरक्षा कल्याणं च सुनिश्चेतुम् आग्रहं कृतम्। राष्ट्रपति पदासीना द्रौपदी मुर्मू वर्या ह्यः मुम्बय्याः भारतीय प्रौद्योगिकी संस्थाने भारतस्य प्रथम स्वदेशी CART चिकित्सा इति राष्ट्राय समर्पितवती। अवसरेऽस्मिन् तया प्रोक्तं यत् CART सेल चिकित्सा अतीव सुलभा वर्तते। इयं चिकित्सा जनेभ्यः कृते नूतनाशा प्रदास्यति। तया कथितं यत् इयं चिकित्सा अनेक रोगिभ्यः जीवन प्रदाने सफला भविष्यति। IPL इत्यस्यां क्रिकेट प्रतिस्पर्धा श्रृंखलायां ह्यः अहमदाबादस्य नरेन्द्र मोदी क्रिकेट क्रीडांगणे पंजाब किंग्स दलेन गुजरात टाइटन्स दलं 3-0 पराजितम्। तत्रैव अद्य सनराइजर्स हैदराबादस्य प्रतिस्पर्धा चेन्नई सुपर किंग्स दलेन सार्धं हैदराबादस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे भविष्यति। इति वार्ताः।